वार्ताम् संतनुते रवौ बहुविधाम् साप्ताहिकीम् याधुना सीवन्ताम् कवयो बुधाः सुहृदयास्ताम् प्रार्थये साधना। स्वागतम् अत्र भवताम् संस्कृतानुरागिणाम् श्रोतॄणाम् आकाशवाण्याः संस्कृत साप्ताहिकी कार्यक्रमे। संस्कृत साप्ताहिकी कार्यक्रमस्य नूतनम् अंकम् आदाय उपस्थिता अस्मि कार्यक्रम प्रस्तोत्री साधना शर्मा। प्रियाः श्रोतारः, अद्य आकाशवाण्याः सह अस्माकम् अपि उत्सवदिवसः, यतोहि अद्य आकाशवाणी संस्कृतवार्तायाः 50वां वर्षमस्ति। सुदिनस्य प्रारम्भः सुभाषितेन करोति अस्माकम् सहयोगी जतिन शर्मा।
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा, सुतप्तमपि पानीयम् पुनर्गच्छति शीतताम्।
उत्तमः परामर्शः। श्रोतारः, बिहार सर्वकारतः उच्च शिक्षा परिषदः शैक्षणिक परामर्शकारस्य प्रोफेसर नवीन कुमार अग्रवाल महोदयस्य अपि शुभकामनाः प्राप्ताः। तेन उक्तम् यत् संस्कृतस्य प्रचारे प्रसारे च आकाशवाण्याः संस्कृतवार्तायाः अस्ति महत्वपूर्णा भूमिका। इदानीं प्रसंगांशं गायति अस्माकं सहयोगी पुनीत त्रिपाठी। शृणुमस्तावत्।
हरिः ओम्। जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः, स नः परिषतति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः। तामग्निवरणाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टाम् दुर्गा देवी गुम् शरणमहम् प्रपद्येषु तरसि तरसे नमः। अग्ने त्वम् पारया नव्यो अस्मान् स्वस्ति विरति दुर्गाणि विश्वा। ऊष्य पृथ्वी बहुलान उर्वी भवातो कायतनयाय संयो। हरि ओम्।
अहो, अतीव रमणीयः मन्त्रः। उक्तम् खलु, एको विश्वस्य भुवनस्य राजा। आयान्तु विश्वस्य वृत्तान्तम् शृणुमः, प्रस्तौति अस्माकम् सहयोगिनी निधि तिवारी।
अष्टादश्याः लोकसभायाः प्रथमम् सत्रम् नवनिर्वाचित सांसदानाम् शपथ ग्रहणेन सह समारब्धम्। भारतीय जनता पार्टीति दलस्य वरिष्ठ सांसदः ओम बिरला अनवरतम् द्वितीयवारम् लोकसभा अध्यक्ष पदाय चितः जातः। दिल्ल्याः मुख्यमन्त्री अरविन्द केजरीवालः कारागृहे एव स्थास्यति, यतोहि दिल्ली उच्च न्यायालयेन धनशोधन प्रकरणे तस्य मुक्तियाचिका निरस्तीकृता। भारतेन सबलम् प्रतिपादितम् यत् स्थायि अस्थायि श्रेण्ययोः विस्तारम् कृत्वा संयुक्त राष्ट्र सुरक्षा परिषदि संशोधनस्य समयः आगतः। विकिलीक्स इत्येतस्य संस्थापकः जूलियन असांजे इत्येषः अमेरिका देशीयैः अधिकारिभिः सह पारस्परिक सहभागित्वस्य अनन्तरम् ब्रिटेन देशस्य कारावासतो विमोचितः। प्रधानमन्त्री नरेन्द्रमोदी आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे देशवासिभिः साकम् विचार विनिमयम् कृतवान्। मासिक कार्यक्रमस्यास्य इदम् एकादशाधिकैक संस्करणम् आसीत्। तरणस्पर्धायाम् धनिधि सिन्धुः, श्रीहरि नटराजः च वैश्विक मानाङ्कनस्य माध्यमेन पेरिस ओलम्पिक स्पर्धायै स्थानम् प्राप्तवन्तौ। धन्यवादाः।
श्रुताः वार्ताः। वस्तुतः संस्कृत वार्ता प्रसारणम् देशे देशान्तरे चापि लोकप्रियताम् अभजत्। शुभकामनाः प्रदत्ताः सोमनाथ संस्कृत विश्वविद्यालयस्य कुलपतिचरेण प्रोफेसर अर्कनाथ चौधरी महाभागेन। भो ज्ञान विज्ञान पिपासवः, पिबामः ज्ञान विज्ञान रसम्। दिल्ली विश्वविद्यालयस्य आचार्याणाम् प्रोफेसर भारतेन्दु पाण्डेय महोदयेन सह संवाद माध्यमेन। संवादम् च साधयति अस्माकम् सहयोगी युवकविः युवराज भट्टराई।
नमो नमः प्रिय श्रोतारः। अद्यतन संस्कृत साप्ताहिकीति कार्यक्रमे सम्भाषणार्थम् उपस्थितः विशिष्टः अतिथिरस्ति अनेक शास्त्र व्युत्पन्नः सर्वश्लाघ्य चरितः नैक संस्कृत संवर्धन कार्यक्रमाणां प्रवर्तकः प्रखर प्रवक्ता दिल्ली विश्वविद्यालयस्य संस्कृत विभागस्य वरिष्ठः आचार्यः प्रोफेसर भारतेन्दु पाण्डे महोदय। श्रेष्ठ गुरु भूयो भूयो नमो वाकं व्याहरामि प्राच्य नव्य संस्कृत साहित्य विमर्श शीलस्य भवतः जिह्वाग्रे वाणी नृत्यन्ति जीवन्ति च भासते एवं संस्कृत भाषां लोकभाषां कुर्वतः भवतः प्रयासः सर्वथा सफलो भवति। अत्र भवतः सौजन्य मुग्धोऽहं श्लोकमेकं निवेदयामि तावत् स्वागतार्थम्। श्री भारतेन्दु मुख निर्गत दिव्य बोधम् गैर्वाण वाङ्मय सुसेवन प्रेरकम् तम् सर्वे जना परिपिबन्त्विह कर्ण पेयम् चर्चाम् विदातु महमस्मि समुद्यतोद्य। स्वागतम् भवतः।
साहित्य अकादमी युव कवि पुरस्कारेण सभाजितस्य भवतो युवराज्यस्य काव्येन हृत चित्तः अयम् जनः संस्कृत साप्ताहिक्याः संस्कृतम् श्रोतृवृन्दम् मुहुर्मुहुर् नौति।
धन्यवाद महोदय। मान्य महोदय, भवान् खलु संस्कृत साहित्य शास्त्र मर्मज्ञः साहित्यिकः अस्ति, अतोऽहम् सर्वादौ प्रष्टुमिहे यत् किम् काव्य समष्टिरेव साहित्यपदेन व्यपदिश्यते उत किमपि अन्यदेव अस्ति अस्य अभिप्रेतम्?
यदेतत् साहित्यम् भवति तदेव सर्वम् सर्वजनम् वेत्ति, सर्वस्य मर्म वेत्ति,
एवम्
पुनश्च सर्वान् सभ्यान् सर्वस्य मर्म वेदयत्यपि। अतः साहित्यमेव मर्मविद् भवति, सर्वमर्मविद् भवति।
एवम् एवम्
अस्तु। अधुना वस्तुतः यदेतत् साहित्यपदम् वर्तते, साहित्यशब्दोऽयम् यः वर्तते, तद्विषये वत्स प्रायशः जनाः भ्राम्यन्ति
एवम्
इति दिग्गोचरी भवति। तर्हि वस्तुतः साहित्य शब्दस्य द्वयी गतिर्भाषायाम् दृश्यते। साहित्य शब्दः एकत्र तु वाङ्मये सामान्यार्थे प्रयुज्यते, अपरत्र तत्र काव्य इत्यस्मिन्नर्थेऽपि प्रयुज्यते।
एवम्
प्रथमे अर्थे कथमस्ति, यथा वैदिकम् साहित्यम्, दार्शनिकम् साहित्यम्, वैज्ञानिकम् साहित्यम्, पौराणिकम् साहित्यम्, एतत् सर्वम् कीदृशम्? एतत् अत्र सर्वत्रैव साहित्यशब्दोऽयम् वाङ्मया परपर्याय भूतः। परन्तु यदा कविः बिल्हणः स्वमहाकाव्ये विक्रमाङ्कदेवचरिताख्ये तत्र कथयति, साहित्यपाथो निधिमन्थनोत्थ कर्णामृतम् रक्षतहे कवीन्द्राः इत्यादि, एतेषु वाक्येषु काव्यवाक्षु यदा साहित्यशब्दः प्रयुज्यते, अत्र साहित्यशब्दः काव्यार्थकः, काव्यैकार्थकः
एवं
न वा, वाङ्मय विशेषार्थकः इति एतादृशः कश्चन विवेकः अस्माभिः सर्वदा एव हृदाधारणीयः। अधुना यदेतत् साहित्यम् वर्तते, काव्यपदबोधकम् यद् वर्तते, अस्य यदि व्याख्या विशेषेण लब्धुम् इच्छा कस्यचित् भवेत् तर्हि तस्य कृते आचार्यवर्यम् कुन्तकमेव शरणम् सः प्राप्नोतु, न वा? सः कथयति न तत्र, साहित्यमनयो शोभा शालिताम् प्रति काप्यसौ अन्यूनानतिरिक्तत्व मनोहारिण्यवस्थितिः इत्यादि इत्यादि।
सत्यम् महोदय, सम्प्रति ये अर्वाचीन साहित्यिकाः सन्ति उत वा अपरे जनाः सन्ति, प्रायः सर्वत्र काव्य साहित्यस्य आधारभूतम् तत्त्वम् सत्यम् शिवम् सुन्दरम् इत्युद्घोषयन्ति ये जनाः सन्ति। अहम् ज्ञातुमिच्छामि यत् किम् प्राच्य साहित्य ग्रन्थेषु सत्यम् शिवम् सुन्दरम् इति शब्देन कुत्रापि उल्लेखो वर्तते वा? नास्ति चेत् कथम् आधुनिक काव्यमर्मज्ञाः उत वा अन्ये जनाः साहित्ये एतस्य मूलाधारताम् प्रतिपादयन्ति? कृपया संक्षिप्य प्रोच्यताम्।
अन्ये एवम् कुर्वन्ति इति तु पृथक् वस्तु वर्तते। अहम् स्वयमेव प्रायशः वर्षदशकात् अनेनैव माध्यमेन काव्यम् अहम् अवगच्छन् अस्मि, यत् वाङ्मयेषु काव्यमेव एतादृक् वाङ्मयम् वर्तते यत् सत्यमस्ति, शिवमस्ति, सुन्दरमपि अस्ति।
एवम्
अन्यद् वाङ्मयम् सत्यम् भवितुमर्हति, शिवमपि भवितुमर्हति, किन्तु तथा सुन्दरम् भवितुम् न अर्हति। यथा व्याकरणं कीदृशं वर्तते, व्याकरणं सत्यं वाङ्मयं भवति, सत्याः वाचः तेन वाङ्मयेन उपदिश्यमाना भवन्ति, असत्याभ्यः वाग्भ्यः सत्या विविच्य तत्र उपदिश्यमाना भवन्ति, तत् सत्यं वर्तते न वा। अधुना तत् शिवसाधनकमपि भवितुमर्हति, पुनश्च अशिवसाधनकमपि भवितुमर्हति न वा। पुनश्च शास्त्राणि यानि वर्तन्ते तानि शास्त्राणि शिवान्यपि भवितुमर्हन्ति न, परन्तु येन यागाद्युपदेशकारीणि यदि शास्त्राणि भवन्ति कानिचित् तर्हि तानि अशिवानि भवन्ति न वा भवन्ति।
सत्यं,
परन्तु यदेतत् काव्यम् अस्ति तत् काव्यम् पूर्वं तु तत्र सत्या एव वाक् प्रयुज्यमाना भवति, साध्वी एव वाक् प्रयुज्यमाना भवति, शुद्धा व्याकरण कथम् एवमस्ति। यदि अन्यथा क्रियते, यदि शुद्धा वाक् न प्रयुज्यते तर्हि तत्र आपतति च्युत संस्कृतित्वं नाम दोषः, स दोषः नित्यदोषः इत्यस्ति प्रायः सर्वाचार्यसरणी। पुनः एतदेव सत्यं काव्यरूपं सत्यं वाङ्मयं पुनः यशः प्रददत्, अर्थं कुर्वत्, व्यवहारं वेदयत्, शिवेतरत् क्षपयत्, रामादिवद् वर्तितव्यं न रावणादिवद् इत्यादि उपदिशश्च सर्वदा शिवमेव भवति। पुनश्च सत्यमपि शिवमपि एतत् काव्यरूपं वाङ्मयं सुन्दरत्वाय कल्पते न वा। वाग्देवतायाः सुन्दरतम एव विग्रहः काव्यपद व्यपदेशभाग् भवति न वा। एतेन काव्यमेव तत्र वाङ्मयेषु निखिलेष्वपि काव्यमेव सत्यं शिवं सुन्दरं च भवति। अमरम् एतद् भारतीय संस्कृति कुक्षितः निर्गतं वाक्यं न वा।
एवम् अस्तु अस्तु, सत्यं भवता प्रोक्तम्। अन्ते अहम् अत्र प्रष्टुमिच्छामि, भवन्तः खलु संस्कृत समर्पित जीवनः, अतः आधुनिक संस्कृत सेवकेभ्य अहमत्र सूचयामि यत् अत्र आकाशवाण्याः संस्कृत प्रसारणस्य 50 वर्ष पूर्ति अपि जायते अस्मिन् मासान्ते एव। तद्विषये अपि
सौभाग्यशाली
तद्विषये भवता को वा सन्देशः अत्र दातुम् इष्यते कृपया।
अद्य यदि एतादृशः सौवर्णः कश्चन अवसरः, ऐतिहासिकः कश्चन अवसरः अत्र वर्तते तर्हि सर्वतः आदौ आत्मीयां धन्यतां कामपि अनुभवन्नयं जनः अतीव मोमुदीति। पुनः आकाशवाणी खल्वेषा अधुना अस्मदीयान् अभिनन्दनवचांसि बहूनि बहूनि अर्हति, सैषा आकाशवाणी अग्रेपि एवमेव वर्धताम् एवमेव प्रवर्तताम् इति एव मदीया काचन शुभकामना वर्तते।
भवते अपि धन्यवादः। मान्य महोदय, भवता सम्भाषणार्थं समयः कल्पितः, एतदर्थं भवते भूयांशु धन्यवादः।
अहमपि प्रणति ततीः निवेदयामि, नाहं संस्कृताय समर्पित जीवनः प्रत्युत संस्कृतात् प्राप्त जीवनः अस्मि। धन्यवादः।
नमो नमः।
नमामि संस्कृतं, नमामि आकाशवाणी एतादृशी। धन्यवादः।
संवादः संस्कृत वाङ्मय ज्ञानेन परिपूर्णः। संस्कृत वार्ताभिः दिग्दर्शनम् कारयति अस्माकम् सहयोगिनी डॉक्टर सुषमा कुमारी।
प्रसरति अखिले विश्वे संस्कृत वार्ता। डॉक्टर कर्ण सिंह महोदयस्य सत्परामर्शेन भारत सर्वकारस्य सूचना प्रकाशन मन्त्रालयस्य स्वीकृत्य 1979 वर्षे जून मासस्य 30 दिनांकात् आकाशवाणी केन्द्रात् संस्कृत वार्तायाः प्रसारणं यद् आरब्धं तत् निरन्तरं समयवृद्ध्या सह नूतन नूतन रोचक कार्यक्रम प्रसारणेन सह लोकप्रियता पूर्वकं 50 वर्षं जून मासस्य 30 दिनांके पूरयति। इदं प्रसारणं देशे देशान्तरे चापि लोकप्रियताम् अभजत्। राष्ट्रियता संवर्धने चापि संस्कृत वार्ता प्रसारणस्य महत्वपूर्णम् अवदानमस्ति। अहं स्वपक्षतः स्वकीय शुभकामनां प्रेषयन् भृशम् आनन्दम् अनुभवामि, कामये च अस्य संस्कृत वार्ता प्रसारणस्य समये वृद्धिर्भवेदिति शम्। श्रीमद्दयनाचार्य विरचितः कुसुमाञ्जलिः इति न्यायशास्त्र प्रशिक्षण वर्गस्य समापनं सञ्जातम्। दरभंगा संस्कृत भारती बिहार न्यासः एवं संस्कृत विश्वविद्यालयस्य संयुक्त तत्वावधाने जून पंचम तारिकातः समायोजित आवासीय क्षेत्रीय संस्कृत प्रशिक्षण वर्गस्य सोमवासरे भारतमाता पूजन पुरस्सरं समापनं जातम्। डॉ मधुबाला शर्मा महाभागया विरचित राजस्थानस्य प्रमुख संस्कृत मनीषी नामधेयस्य पुस्तकस्य विमोचनं जातम्। महर्षि वाल्मीकि संस्कृत विश्वविद्यालय मौनधारा कपिष्ठल हरियाणायाम् आचार्य शास्त्री प्रतिष्ठा अंशकालीन डिप्लोमा पाठ्यक्रम एतदर्थं प्रवेश प्रक्रिया आरम्भः। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये प्रकाशित प्रवर्तमान आगामि वर्षाय च कृते विश्वविद्यालयीय पञ्चाङ्गः गत शनिवासरे कुलपतिना प्रोफेसर लक्ष्मी निवास पाण्डेय वर्येण विमोचनं कृतम्। केन्द्रीय संस्कृत विश्वविद्यालय द्वारा क्रीडाधारित साक्षात् प्रणालिकया संस्कृत ओलम्पियाड इति कार्यक्रमः समायोजयति। अस्य उद्देश्यं वर्तते नवाचार रोचकतया संस्कृत गूढतम ज्ञानं जन जन पार्श्वे सम्प्रेषणम् इति।
पञ्चाशत् वर्ष पूर्वम् आकाशवाणीतः संस्कृत वार्ता प्रसारणं प्रारब्धम्, यत् संस्कृत जगतः महान् उपलब्धिरासीत्। शुभकामनाः प्रदत्ताः कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य पूर्व कुलपतिना प्रोफेसर शशिनाथ झा महोदयेन। बालाः यूयं वस्तुतः समुन्नेतारः, युष्माकं कृते बालमनोवल्लर्यां बालकथां श्रावयति अस्माकं सहयोगिनी रिंकू जोशी।
ब्रह्मवने कर्पूरतिलकः नाम एकः गजः वसति स्म। तत्र केचन शृगालाः अपि प्रतिवसन्ति स्म। एकदा तेषु एकः शृगालः अवदत्, यदि वयम् एतं गजं मारयेम तर्हि मासं यावत् वयं खादितुं शक्नुयाम्। तदा तेषु एकः वृद्धः शृगालः अवदत्, अहं बुद्धिर्बलेन निश्चयेन तं गजं मारयिष्यामि इति। तदनन्तरं गजम् अन्वेषयन् सः गजस्य समीपं गत्वा तं साष्टाङ्ग नमस्कृत्य अवदत्, हे गजराज, मयि दयस्व। गजः शृगालं पृष्टवान्, कोऽपि त्वम् अत्र किमर्थम् आगतवान्? तदा शृगालः अवदत्, वने जन्तवः वसन्ति, किन्तु कोऽपि राजा तेषां नास्ति। ते राजानं विना जीवितुं न शक्नुवन्ति। अतः ते सभां कृत्वा मां सूचितवन्तः, यदि गजराजः अस्माकं राजा भवेत् तर्हि वरम्। अहं तेषाम् एव सन्देशः नीत्वा अत्रागतोऽस्मि। कर्पूरतिलकः एतत् श्रुत्वा प्रसन्नः अभवत्। तस्यानुरोधम् अङ्गीकृत्य सः तम् अनुसृतवान्। सः चतुरः शृगालः तं कर्पूरतिलकम् एकस्य गर्तस्य समीपम् अनयत्। तस्मिन् गर्ते पङ्कः आसीत्। सः गजः तस्मिन् गर्ते अपतत्। सः शृगालम् अवदत्, रक्षतु माम्, रक्षतु माम्। तदा सः धूर्तः शृगालः उच्चैः हसन् अवदत्, मम पुच्छं गृहीत्वा गर्तात् बहिः आगच्छत्। तदा कर्पूरतिलकः अवगच्छत् यत् सः शृगालेन वञ्चितः इति। अतः उच्यते, बुद्धिर्यस्य बलं तस्य।
तर्हि बालाः, यस्तु सञ्चरते देशान् सेवते, यस्तु सञ्चरते देशान् सेवते यस्तु पण्डितान्। बुद्धिविस्ताराय, देश सञ्चरणे भारत भ्रमणाय एक भारत श्रेष्ठ भारत अंशे अस्माकं सहयोगी अस्ति कृष्ण प्रसाद उपाध्यायः।
भारत की राजधानी दिल्ली है, हिंदी। भारतस्य राजधानी दिल्ली नगरम अस्ति, संस्कृतम्। भारत को राजधानी दिल्ली हो, नेपाली। भारतर राजधानी दिल्ली है, अखमिया। भारतनी राजधानी दिल्ली छे, गुजराती। भारताची राजधानी दिल्ली आहे, मराठी। भारतक राजधानी दिल्ली अछि, मैथिली। हमें भारत पर गर्व है, हिंदी। वयम भारतस्य विषये गर्विताः स्मः, संस्कृतम्। हामीलाई भारतमा गर्व छ, नेपाली। आमी भारतक लै गौरवान्वित, असमिया। अमने भारत पर गर्व छे, गुजराती। आमहाला भारताचा अभिमान आहे, मराठी। हमरा सबके भारत पर गर्व अछि, मैथिली।
विविधतायाम् ऐक्यम् दृष्टम्। अयि सुहृत् वर्याः प्रियाः श्रोतारः, भवन्तः कार्यक्रमस्य सम्बद्धान् अनुभवान् शुभकामनाश्च अस्मभ्यम् ईमेल माध्यमेन प्रेषयितुम् अर्हन्ति। अस्माकम् ईमेल सङ्केतः वर्तते nsdsanskrit@gmail.com nsdsanskrit@gmail.com। पुनः एकवारम् शुभकामनाः सर्वेभ्यः, सादरम् अभिवादनम्, शुभम् मङ्गलम्।